अमरकोशे अष्टदिग्गजानां नामानन्तरं तेषां पत्नीनां नामानि नाम करिण्यः ये भवन्ति अष्टदिग्गजानां तासां नामानि करिण्योऽभ्रमुः कपिला पिङ्गलानुपमाः क्रमात् ताम्रपर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती करिण्यः अभ्रमुः कपिला पिङ्गलानुपमाः क्रमात् करिण्यः नाम पूर्वोक्तरीत्या अष्टदिग्गजानां पत्नी पत्न्यः याः सन्ति ताः करिण्यः गजजातिषु स्त्रीति अभ्रमुः न भ्रमति स्वं वल्लभं हित्वा कुत्रचिन्न न गच्छतीत्यभ्रमुः नाम या करिणी स्ववल्लभं हित्वा कुत्रचित् यत् न गच्छति न भ्रमति वल्लभं हित्वा स एव अभ्रमुः इति उच्यते उकारान्तस्त्रीलिङ्गशब्दः अन्यः अर्थः अभ्रेषु माति वर्तते इति अभ्रमुः नाम मेघेषु यत् वर्तते तदेव अभ्रमुः इति उच्यते माङ् माने वर्तने च इत्यस्मात् धातोः इदं पदं निष्पन्नम् अनन्तरं द्वितीया करिणी कपिला कपिलवर्णत्वात् कपिला नाम कपिलवर्णः अस्ति अस्याः अत एव कपिला इति उच्यते अन्यच्च काम्यत इति कपिला काम्यते इति कपिला नाम या इष्यते काम्यते सैव कपिला इति उच्यते अनन्तरं पिङ्गला पिङ्गलवर्णत्वात् पिङ्गला पिङ्गलवर्णः अस्ति अस्याः करिण्याः अत एव पिङ्गला इति अनुपमा चतुर्थीकरिणी अनुपमा न विद्यते उपमा यस्याः सा अनुपमा यस्य औपम्यं नास्ति अन्यैः अथवा अन्यकरिणीभिः यस्याः उपमा नास्ति सैव अनुपमा इति अनन्तरं ताम्रवर्णी इति प्रथमं ताम्रपर्णी इति पश्यामः ताम्रपर्ण इत्याख्य ओषधीसाहचर्यात् ताम्रपर्णी इति ताम्रपर्णाख्य ओषधीसाहचर्यात् ताम्रपर्णी इकारान्तस्त्रीलिङ्गशब्दः अनन्तरं ताम्रपर्णी शुभ्रदन्ती ताम्रपर्णी इत्येव पाठः न तु ताम्रवर्णी ताम्रपर्णी शुभ्रदन्ती शोभनौ दन्तौ यस्याः सा शुभदन्ती अथवा शुभ्रदन्ती ईकारान्त स्त्रीलिङ्गशब्दः शुभ्रम् इत्युक्ते श्वेतमित्येव अर्थः अतः शुभ्रदन्ती नाम शोभनौ दन्तौ इति एकः अर्थः श्वेतवर्णयुत दन्ताः दन्तौ यस्याः सा शुभ्रदन्ती इति वक्तुं शक्यते अनन्तरम् अङ्गना शोभनान्यङ्गानि यस्याः सा अङ्गना इति अनन्तरम् अञ्जनावती अञ्जनगिरिसदृशत्वात् एवम् अञ्जनवर्णत्वाद्वा अञ्जना इयं करिणी अञ्जनगिरिसदृशा भवति अन्यच्च अञ्जनवर्णत्वम् अस्ति अस्याः करिण्याः अतः अञ्जनावती इति उच्यते अञ्जनाकारो वर्णः अस्याः अस्ति इत्यञ्जनावती एवम् अन्यः अर्थः अपि